इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् भारतस्य एक्ट ईस्ट इत्येषा प्रतिवेशि प्रथम नीतिः आसियान देशीय सम्बन्धान् नूतनाम् ऊर्जाम् गतिम् दिशाम् च अयच्छत्। तेन सबलम् प्रतिपादितम् यत् एकविंशि शताब्दी भारतस्य आसियान देशानाम् च अस्ति। लाओ राजधान्याम् वियञ्चने ह्यः भारतासियान शिखर सम्मेलने प्रधानमन्त्री अवदत् यत् भारतम् आसियान देशाः च शान्तिप्रिय राष्ट्राणि सन्ति, अपि च एतानि परस्परम् अखण्डतायाः सम्प्रभुतायाः च सम्माननम् कुर्वन्ति। प्रधानमन्त्री अवदत् यत् यदा विश्वे अनेकभागेषु साम्प्रतम् आपीड मतभेदादिकं दृश्यते तदा भारतासियान देशेषु मित्रता सहयोग संवाद सहभागिताः च अतितराम् महत्वपूर्णाः सञ्जाताः। श्रीमोदी उक्तवान् यत् विगतेषु दशवर्षेषु आसियान क्षेत्रैः सह भारतस्य व्यापारः संवर्ध्य द्विगुणितः अर्थात् त्रयोदश कोटि डॉलरतः अधिकः संवृत्तः। एतदतिरिच्य अत्र सम्मेलने प्रधानमन्त्री विभिन्नैः आसियान नेतृभिः समम् अपि द्विपाक्षिक चर्चाम् अकरोत्। गृहमन्त्रिणा अमितशाहेन उद्योगानां स्तरम् आकारं च प्रवर्धयितुं समाहूतमस्ति। नवदिल्ल्यां ह्यः पीएचडी चैम्बर ऑफ कॉमर्स एण्ड इण्डस्ट्री इत्यत्र ऊनविंशत्युत्तरैकशततमं वार्षिकं सत्रं सम्बोधयन् श्रीशाहः उक्तवान् यत् देशस्य उद्योगैः बृहत्स्वप्नाः द्रष्टव्याः ये हि विश्वस्मिन् विश्वे व्याप्ताः भवेयुः। तेन उक्तं यत् एतादृशान् स्वप्नान् साकारीकर्तुं संघटनानि उद्योगाः च सम्भूय कार्याणि कुर्युः। तेन उक्तं यत् सर्वकारेण द्विसहस्राधिक वर्ष पुरातनानाम् औपनिवेशिक विधीनाम् अपसारणं कृत्वा समवायाधिनियमे परिष्कारः कृतः, अपि च ऊनचत्वारिंशत् सहस्राधिकानां नियमानाम् अनुपालनं च सरलीकृतम्। केन्द्रेण विध्यसम्मत क्रियाकलापरोध्यधि अधिनियमान्तर्गतं हिज्ब उत तहरीरम् एतत्सम्बद्धानि सर्वाणि संघटनानि च आतंकवादि संघटनत्वेन घोषितानि। गृहमन्त्रालयस्य एकस्याम् अधिसूचनायाम् उक्तं यत् एतानि संघटनानि यूनः इस्लामिक स्टेट सदृशेषु आततायी संघटनेषु सम्मेलितुं तान् उग्रवादिनः कर्तुं उग्रवादं प्रति प्रेरयितुं आतंकवादि क्रियाकलापेभ्यः धनसंग्रहणार्थं च आक्षिप्तानि सन्ति। अशेषे देशे दुर्गा पूजनोत्सवः सश्रद्धं सोल्लासं च आयोज्यते। देशस्य विभिन्न भागेषु पश्चिम बंगाले च जनाः दुर्गा पूजन समारोहेषु सोत्साहं भागं गृह्णन्ति। असम प्रदेशे चतुस्सहस्राधिकानि दुर्गा पूजन स्थलानि निर्मितानि। अस्माकं वार्ताहरैः सूचितं यत् पूजन समितिभिः विभिन्नेषु स्थलेषु विभिन्नेषु विषयेषु रचनात्मकरीत्या सन्देशं प्रसारयितुम् अस्थायि दुर्गा पूजन स्थलं सज्जीकृतम्। राष्ट्रपतिः द्रौपदी मुर्मुः दुर्गा पूजनावसरे देशवासिनः प्रवासिनश्च वर्धापितवती। तया उक्तं यत् शौर्य प्रतीक रूपाये दुर्गा देव्ये समर्पितम् एतत् पर्व असतः उपरि सतः विजयस्य प्रतीक रूपम् अस्ति। विख्यातोद्योगपतिनः समाजसेवकस्य रतन टाटा इत्यस्य गतदिने मुम्बय्यां पूर्ण राजकीय सम्माननेन सह अन्तिमसंस्कारः अभवत्। अत्रावसरे केन्द्रीयः गृहमन्त्री अमितशाहः अनेके मन्त्रिणः च उपस्थिताः आसन्। अन्ते क्रीडावार्तासु कजाकिस्ताने अस्तानायाम् आयोजितायाम् एशियन टेबल टेनिस स्पर्धा मालिकायां भारतीयेन पुरुषदलेन कांस्यं पदकम् अधिगतम्। उपान्त्य चक्रीयायां स्पर्धायां ह्यः चाइनीज ताइपेइ दलेन भारतं शून्यं विरुध्य त्रिभिः खेलान्तरालैः पराजितम् इति वार्ताः।